सर्वेभ्यः नमस्काराः. अद्यतनकक्षाम् आरभामहे मङ्गलश्लोकेन. सर्वे मया सहैव वदन्तु. सर्वेषाम् अभ्यासः जातः इति मन्ये, अतः इदानीम् अहं न पाठयामि, सर्वे सहैव वदामः. येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. गतकक्षायाः किञ्चिदिव पुनरावर्तनम्. वस्तुतः इदानीं सिद्धान्तकौमुद्याः संज्ञाप्रकरणम् अधीयते, अर्थात् प्राधान्येन याः संज्ञाः अत्र दीक्षितैः निबद्धाः ताः ज्ञातव्याः. आदौ इत्संज्ञा आसीत्. इत्संज्ञा विधीयते सूत्रद्वयेन, उपदेशे अजननासिकैत् तथा हलन्त्यम् इति सूत्रद्वयेन इत् इति संज्ञा विधीयते. ततः आदिरन्तेन सहेता इति सूत्रेण प्रत्याहारनिर्माणं कथम् इति ज्ञातं. प्रत्याहारसंज्ञापि तेनैव सूत्रेण लभ्यते. यद्यपि पाणिनिः प्रत्याहारशब्दं न प्रयुङ्क्ते, तथापि प्रत्याहारः प्रत्याहारसंज्ञाविधायकं तदेव सूत्रम्. ततः ह्रस्वदीर्घप्लुतसंज्ञाः अचां स्वराणां ह्रस्वदीर्घप्लुत इति संज्ञाः विहिताः. ऊकालो ह्रस्वदीर्घप्लुतः इति सूत्रेण, ऊकालः अच ह्रस्वदीर्घप्लुत इति संज्ञाः तेनैव सूत्रेण विहिताः. पुनश्च एतेषु त्रिषु भेदत्रयं वर्तते, उदात्त अनुदात्तस्वरिताः. उच्चैरुदात्तः नीचैरनुदात्तः समाहारः स्वरितः इति क्रमात् एतत् संज्ञाविधायकानि सूत्राणि. अस्माभिः इदानीं केवलं भेदाः ज्ञातव्याः. वैदिकस्वराणां विषये अस्मिन् प्रसङ्गे न युज्यते इति भाति. सिद्धान्तकौमुद्यामेव वैदिकप्रकरणं स्वरप्रकरणं चेति अन्ते कौमुद्याः अन्ते दीक्षितैः निबद्धमस्ति. तत्र अध्येतव्यं भवति विशदतया. इदानीं तु केवलं स्वराः, प्रत्येकं स्वरस्य त्रयः भेदाः, ह्रस्वः दीर्घः कृतः चेति तत्र प्रत्येकं पुनः त्रयः भेदाः, उदात्तः अनुदात्तः स्वरितश्चेति एतावत् ज्ञातव्यम्. इदानीं कति भेदाः जाताः? नवभेदाः, 3×3. वि गाट् 9 टैप्स् आफ् स्वरास्. इदानीम् उच्यते सः नवविधोऽपि अनुनासिक अननुनासिकत्वाभ्यां द्विधा. प्रत्येकं स्वरः इदानीं ह्रस्वः उदात्तः, ह्रस्व उदात्त आकारः अस्ति चेत् स द्विविधः, अनुनासिकः आकारः अननुनासिकः आकारः चेति. एवं ह्रस्व अनुदात्त आकारः द्विधा, ह्रस्व अनुदात्त अनुनासिकः, ह्रस्व अनुदात्त अननुनासिकः इति. एवं सर्वत्र नवसु अपि भेदेषु पुनः भेदद्वये जाते आहत्य अष्टादशस्वराः सम्भवन्ति. अनुनासिकः नाम कः? पूर्वमपि आसीत् उपदेशे अस्ति अनुनासिकः इति. अनुनासिकः नाम कः इति चेत् उच्यते पाणिनिना मुखनासिका वचनोऽनुनासिकः. पदद्वयमस्ति सूत्रे, मुखनासिका वचनः अनुनासिकः इति. अनुनासिकः इति संज्ञा, मुखनासिका वचनः इति संज्ञी. संज्ञा इस् दट् टर्म्, संज्ञी इस् दट् टु विच् द संज्ञा अप्लैस्. फार् एक्साम्पल् हलन्त्यम् इट् इस् द संज्ञा. And any hal which is at the end is called samyi. Similarly, atra anunasikaha iti samya, mukhanasikavachanaha iti samyi. Mukhanasikavachanaha namakaha, mukha sahita nasikaya uchadyamanaha varnaha anunasika samyaha syat iti vrittihi. Mukha sahita nasikaya, sarve varnaha mukhenaiva uchadyante, tatra sandehaha nasati. Mukhena saha nasikayaha api upayogaha kriyate cheta, सः वर्णः अनुनासिकः इति कथ्यते. एनी लेटर् विच् यूसस् द मौत् एण्ड् द नोस् फार् इट्स् प्रोनौन्सियेशन् इस् काल्ड् अनुनासिक the common anunasikas we know are the fifth letter of each varga. Kakha gagha nga, chacha jajha nya, tatha dadha na. The fifth letters are called anunasikas. But here, anunasika is not just those. Any letter which can be pronounced with that, with the mukha sahita nasika, is called anunasika. Swaraha api, yatha atra uchyate, tatha sarve swaraha, anunasikaha, anunasikaha, iti dvedha bhavitum arhanti. यदि नासिकायाः साहाय्येन उच्चार्यन्ते तर्हि अनुनासिकः यदि नासिकायाः उपयोगः नास्ति तदा अननुनासिकः इति इदानीम् अ इ ऊर् एषां वर्णानां प्रत्येकम् अष्टादशभेदाः कथम् अष्टादशभेदाः इति चेत् पश्यन्तु अकारः अस्ति आदौ अकारः एक एव आसीत् शिवसूत्रे अ इ ऊम् इत्यत्र एक एव अकारः पठितः सः अकारः त्रेधा विभक्तः ह्रस्वः दीर्घः प्लुतः चेति कथं लेखनं तु जानन्ति अकारः आकारश्च सामान्यमेव प्लुतस्य तु ब्राकेट् मध्ये संख्या त्रि इति संख्या लिख्यते तेन प्लुतः इत्युक्ते त्रिमात्रकः इत्यर्थः अकारस्य एका मात्रा आकारस्य द्वे मात्रे प्लुतस्य उच्चारणे तिस्रः मात्राः आवश्यक्यः इति ह्रस्वः दीर्घः प्लुतः पुनः कस्केन सूत्रेण ऊकालोच्छ्रस्वदीर्घप्लुतः इति सूत्रेण पुनः प्रत्येकं ह्रस्वस्य दीर्घस्य प्लुतस्य च त्रयः भेदाः उदात्तः अनुदात्तः स्वरितः उच्चैरुदात्तः नीचैरनुदात्तः समाहारस्वरितः इति तेषां लेखनमपि दर्शितमासीत् तत्र न दृश्यते अनुदात्तस्य अधोभागे रेखा भवति उदात्तस्य ऊर्ध्वभागे रेखा भवति उदात्तः अनुदात्तः अधोभागे रेखा आसीत् इदानीं न दृश्यते अत्रापि पुनः अत्रापि सर्वत्र त्रयः भेदाः आहत्य नव ह्रस्व उदात्त ह्रस्व अनुदात्त ह्रस्वस्वरित एवं दीर्घे प्लुते च नवभेदाः इदानीं पुनः एषु नवभेदेषु द्वेधा विभागः अनुनासिकः अननुनासिकः अनुनासिकस्य उपरि चन्द्रबिन्दुः इति कथ्यते तच्चिह्नं भवति अननुनासिकश्च किमपि न भवति इदानीम् एषः प्रथमः वर्णः ह्रस्व उदात्त अननुनासिकः अयं ह्रस्व उदात्त अनुनासिकः एवमेव ह्रस्व अनुदात्त अननुनासिकः ह्रस्व अनुदात्त अनुनासिकः इति भेदाः आहत्य अष्टादशभेदाः सम्भवन्ति ह्रस्वस्वरेषु षट् दीर्घस्वरेषु षट् प्लुतस्वरेषु षट् एवमेव अयम् अकारस्य विभागः इकारस्यापि एवमेव इ उ ऋ एतेषां सर्वेषां वर्णानाम् एवमेव भेदाः दिस् इस् हौ द फोर् स्वरास् केन् बि क्लासिफैड् अ इ उ ऋ आल् आफ् देम् विल् हाव् 18 टैप्स् ह्रस्व दीर्घ प्लुत उदात्त अनुदात्त स्वरित अनुनासिक अननुनासिक तदित्थम् अ इ उ ऋ एषां वर्णानां प्रत्येकम् अष्टादशभेदाः लुवर्णस्य द्वादश तस्य दीर्घाभावान् लुवर्णस्य विषये पश्यामश्चेत् लोके वा वेदे वा कुत्रापि दीर्घ ऋकारस्य प्रयोगः नास्ति ऋकारः ह्रस्वः भवति श्रुतः अपि भवति किन्तु दीर्घस्य प्रयोगः नास्ति अतः दीर्घस्य षट् प्रभेदाः ये आसन् ते न भवन्ति ह्रस्वस्य षड्भेदाः मृतस्य षड्भेदाः आहत्य द्वादश एव भेदाः एवमेव एचाम् एच् इति प्रत्याहारः ए ओम् इत्यतः एकारः तस्य अयौच् इत्यस्य सकारेण चत्वारः वर्णाः सन्धिहिताः भवन्ति एच् इति प्रत्याहारेण ए ओ ऐ औ एतेषां चतुर्णामपि पुनः द्वादश एव भेदाः किमर्थम् इति चेत् तेषां ह्रस्वाभावात् एतेषां वर्णानां ह्रस्वस्वरः नास्ति केषुचन भाषासु कासुचन भाषासु भारतीयभाषासु उदाहरणार्थं कन्नडे एव त्रयः भेदाः भवन्ति ए ए ऐ एवम् ओ ओ औ इति संस्कृतभाषायां तु तथा नास्ति ह्रस्वस्य प्रयोगः नास्ति ए ऐ ओ औ इति चत्वारः अपि वर्णाः दीर्घाः एव दीर्घाः भवन्ति प्लुताः अपि भवन्ति ह्रस्ववर्णः नास्ति तस्मात् तत्रापि द्वादश प्रभेदाः अ इ ऊर् चतुर्णां स्वराणाम् अष्टादशभेदाः ऋ ए ओ ऐ औ इति पञ्चस्वराणां द्वादशभेदाः आहत्य आहत्य स्वराणां संख्या भवति द्वात्रिंशदधिक एकशतम् टोटली यु गेट् 132 स्वरास् फ्रम् द 9 स्वरास् विच् आर् प्रेसेण्ट् इन् द माहेश्वरसूत्र माहेश्वरसूत्रेषु 9 एव स्वराः पठिताः अ इ उ ऋ ए ओ ऐ औ इति तेषां प्रभेदैः आहत्य द्वात्रिंशदधिक एकशतं स्वराः सम्भवन्ति दीस् आर् द केटगरीस् आफ् स्वरास् व्यञ्जनेषु तु एवं प्रभेदाः न सन्ति तत्र केवलं त्रयाणां स्वराणाम् अग्रे वक्ष्यते य व ल यकार वकार लकाराणाम् अनुनासिकप्रभेदः अपि अस्ति तस्मात् तेषां द्वेधा विभक्ताः यवलाः यकार वकार लकाराः अन्येषां वर्णानां तु एवं प्रभेदाः न सन्ति इदानीम् अकारस्यैव अष्टादशभेदाः इति ज्ञाताः ते सर्वे यथा सर्वे जानीयुः सवर्णदीर्घः इति सन्धिः अस्ति अकः सवर्णे दीर्घः इति तद्विधा एकं सूत्रम् अतः अकारादीनां सवर्णे स्वरे परे सवर्णदीर्घः भवति इति किन्तु सवर्णः नाम कः इति प्रश्ने सवर्णः इति एका संज्ञा तां संज्ञाम् तुल्यास्य प्रयत्नं सवर्णम् इति सवर्णसंज्ञाविधायकं सूत्रम् तुल्यास्य प्रयत्नं सवर्णम् पदद्वयमेव तुल्यास्य प्रयत्नम् इति एकं पदम् तुल्य आस्य प्रयत्न इति पदत्रयस्य समस्तम् एकं पदमस्ति सवर्णम् इति अपरं पदम् कः अर्थः तुल्यं तुल्यं नाम समानं सदृशम् इति अर्थः आस्यं नाम मुखम् वक्त्रास्ये वदनम् इत्यादिरीत्या अमरे उच्यते अतः वक्त्रम् आस्यं वदनं मुखं लपनम् इत्यादीनि मुखस्य पर्यायपदानि मुखशब्देन अत्र मौत् इति स्वीक्रियते संस्कृते मुख अथवा वदनशब्दस्य पर्यायाः बहवः अर्थद्वयेपि उपयुक्ताः सन्ति यथा बोत् फेस् अण्ड् मौत् वि यूस् मेनि वर्ड्स् are interchangeable. As in many words which we use for teeth are used for both mouth and face in Sanskrit. But here it means the mouth. Dvedha nishpatthi darshyate. Asyanti varnan, asyati varnan iti tataha anyadekam asti. It means one in which you eat. Asyandate annam iti kimapi asti. There are two derivations for the word asya. Both of them refer to mouth, particularly for the mouth, where the words, letters are pronounced, and there is one more derivation which tells where you put the morsel of food. Okay? By both things, asyam means mouth. Asyam prayatnam, prayatnaha. Asyam iti ekamasti, prayatnaha iti ekamasti. Eta dvayam yayohu varnayohu samanam bhavati. तत् सवर्णम् तौ परस्परं सवर्णसंज्ञां प्राप्नुतः देर् इस् वन् थिङ्ग् काल्ड् आस्य अण्ड् वन् मोर् काल्ड् प्रयत्न एनी टु लेटर्स् सवर्णसंज्ञा इस् आल्वेस् बिट्वीन् टु लेटर्स् यु टेक् टु लेटर्स् अण्ड् ट्रै टु डिसैड् इफ् दे आर् सवर्णस् आफ् ईच् अदर् यु केनाट् टेल् दट् टेकिङ्ग् जस्ट् वन् लेटर् दट् इट् इस् अ सवर्ण इट् आल्वेस् हेस् टु बि अ सवर्ण टु समथिङ्ग् फार् एक्साम्पल् इफ् यु टेक् अ इस् अ सवर्ण टु अ It is not a savarna to E. Just taking akara, you cannot tell whether it is savarna or not. So you take two letters. If for the two letters, there are two things which have to be equal. One is asya and the other is prayatna. If both these things are equal, you call them savarnas. If they are different, you call them a savarna. They are not savarna. Asyam prayatnashya yadi tulyam samanam bhavati tarhi dvauvarnau savarnau iti kathyata. किं नाम अवश्यं कश्चन प्रयत्नः इति चेत् दीक्षितैः सूत्रार्थः लिख्यते ताल्वादिस्थानम् आभ्यन्तरप्रयत्नश्च यस्य येन तुल्यं तत् मिथः सवर्णसंज्ञं स्यात् यस्य येन तुल्यं यस्य वर्णस्य येन वर्णेन सह समानता अस्ति तत् मिथः मिथः नाम परस्परं फॉर ईच अदर सवर्णसमयं स्यात् दे विल बी कॉल्ड सवर्णाज ऑफ ईच अदर वेन ताल्वादि स्थानम् आस्यम् अत्र आस्येभवम् आस्यम् इत्यनेन वर्णोत्पत्ति स्थानं स्वीक्रियते द places parts of the mouth from which the varnas are pronounced is called asya sthana talvadi sthanam abhyantara prayatnascha and there is something called abhyantara prayatna which we will define later so if these two parameters are the same for a given set of for a given couplet for given set of two letters then those words can be called those letters can be called savarna ka sthana talvadi sthanam स्थानं वर्णोत्पत्ति स्थानम् आभ्यन्तर प्रयत्नश्च एतद्वयमपि समानं भवति चेत् सवर्णम् इति उक्तं किं नाम स्थानं कष्टप्रयत्नः इत्युक्ते स्थानानि उच्यन्ते इदानीं दीक्षितैः कानि स्थानानि वर्णोत्पत्ति स्थानानि इति चेत् सूत्राणि सन्ति तदर्थमपि अकुह विसर्जनीयानां कण्ठः अकुह विसर्जनीयानां कण्ठः इचुयशानां तालु ऋतुरसानां मूर्धा ऋतुलसानां दन्ताः उभौपध्वनीयानां ओष्ठौ न्यम्बगणनानां नासिका च एदैतोः कण्ठतालु ओदौतोः कण्ठोष्ठं वकारस्य दन्तोष्ठं जिह्वामूलीयस्य जिह्वामूलं नासिका अनुस्कारस्य इति स्थानानि इत्यस्ति भवतः सर्वेषां समीपे पुस्तकम् अस्ति इति मन्ये मत्वा पठितम् अत्रापि अस्ति किन्तु पुस्तके अस्ति एतानि स्थानसम्बद्धीनि सूत्राणि इत्युक्ते पाणिनिसूत्राणि न सन्ति दीक्षितानां वाक्यानि किन्तु स्पष्टतया अल्पाक्षरैः दीक्षितैः उक्तमस्ति केषां वर्णानाम् उत्पत्तिस्थानानि कानि आद्यं सूत्रमस्ति अकुह विसर्जनीयानां कण्ठः अ कु ह विसर्जनीयानां कण्ठः एतेषां वर्णानां स्थानं कण्ठः थ्रोट् इस् द उत्पत्तिस्थानं फोर् दीस् लेटर्स् अ नाम अकारः अकारः नाम सर्वे प्रभेदाः अकारस्य अष्टादश अपि प्रभेदाः तेषां सर्वेषां कु कु नाम कवर्गः अस्माकं व्याकरणे यथा उक्तं माहेश्वरसूत्रेषु आनुपूर्वी भिन्ना अस्ति प्रत्याहाराः क्रियन्ते चेत् तेनैव क्रमेण वर्णाः सङ्गृह्यन्ते किन्तु वर्गशः वर्णानां सङ्ग्रहार्थम् अयम् उपायः उपयुज्यते पाणिनिना कु उकारः अनुबन्धः क्रियते अत्र कु इत्यत्र उकारः इत्सम्यकः इत् नाम उपदेशे अजनुनासिक इत् कु इत्यत्र यः उकारः सः अनुनासिकः तस्य उपदेशे अजनुनासिक इत्यनेन इत्संज्ञा अस्ति एवं यत्र इत्संज्ञा अस्ति उदाहरणार्थं कु इति तत्तु सर्वेषां वर्गाक्षराणां सङ्ग्रहः भवति कथम् इत्यपि तत्र ज्ञायते अर्थात् कु इत्युक्ते क ख ग घ ङ पञ्च अक्षराणि एवं चु इत्युक्ते च छ ज झ ञ पञ्च वर्णाः पञ्चफलः एवं कु चु टु तु पु इति पञ्च सन्ति यैः पञ्चानामपि वर्गाणां सङ्ग्रहः भवति अतः अत्र अ कु इत्युक्ते क ख ग घ ङ ह हकारः विसर्जनीयः विसर्गः एतेषां वर्णानां कण्ठः उत्पत्तिस्थानम् इचुयशानां तालु इ इकारः इकारः अष्टादशभेदाः चु नाम चवर्गः चु छ ज झ ञ य श यकार षकार एतेषां वर्णानां तालु स्थानं तालु इस् द पेलेट् द रूफ् आफ् द मौत् इस् काल्ड् द पेलेट् द फ्रण्ट् पोर्शन् इस् काल्ड् द मूर्धा सो तालु इस् द स्थान फार् इकार सवर्ग य एण्ड् श Lakshmi Srinivas, he has a doubt. I'll just unmute him. हरि ओम् हरि ओम् श्रीनिवास लक्ष्मी श्रीनिवास महोदय
नो सॉरी भाई द हैंड वाज रेज्ड बाय मिस्टेक आई एम सॉरी
ओके इत्येषाणां तालु एतेषां वर्णानां तालुस्थानम् ऋतुरषाणां मूर्धा ऋकारः ऋकारस्य पुनः अष्टादशप्रभेदाः तु नाम टवर्गः रेफः षकारः एतेषां वर्णानां मूर्धास्थानम् अत एव अयं षकारः मूर्धन्यषकारः इत्युच्यते पूर्वतनः षकारः तालव्यषकारः इति भेददर्शनाय उपयुज्यते ततः ऋतुरसानां दन्ताः लुकारः लुकारस्य कति भेदाः द्वादशभेदाः तस्य दीर्घाभावात् द्वादश एव भेदाः तेषां तु नाम तवर्गः त थ द ह न इत्येतेषां ल लकारस्य सकारस्य च दन्ताः स्थानम् दन्तैः उत्पाद्यन्ते इमे वर्णाः उपूपध्मानीयानाम् ओष्ठो उ उकारः उकारस्य अष्टादशभेदाः पु नाम पवर्गाक्षराः उपध्मानीयः उपध्मानीयः दिवामूलीयः इति विशेषं वर्णद्वयमस्ति द्वयम् उच्यते ककाभ्यां प्राग् अर्धविसर्गसदृशः जिह्वामूलीयः यत्र ककारात् प्राग् विसर्गः अस्ति उदाहरणार्थं चैत्रः कः इति पृच्छामश्चेत् चैत्रः कः संहितायां सत्यां चैत्रः कः इति उच्यते अह् क इत्यत्र यः अर्धविसर्गसदृशः वर्णः सः जिह्वामूलीयः इति उच्यते एवमेव पकारात् प्राक् पकाराभ्यां प्राग् यः तादृशः वर्णः सः उपध्मानीयः अन्तःपुरम् इत्युच्यते अन्तः पुरम् इति संहितायाम् अन्तःपुरम् इति सः उपध्मानीयः सोऽपि वर्णः उपध्मानीयाख्यः वर्णः अपि ओष्ठाभ्याम् ओष्ठौ लिप्स् ओष्ठाभ्याम् उत्पाद्यते उपूपध्मानीयानाम् ओष्ठौ उभयोरपि ओष्ठयोः साहाय्येन उत्पाद्यन्ते इमे वर्णाः अत एव फ इत्येव साधु न तु फ इति फ इत्यत्र उभयोः ओष्ठयोः प्रयोगः अस्ति ततः नासिका च न्यमगणन इति वर्गाणां पञ्चमाक्षराः तेषां नासिका च इति उक्तं सकारात् तत्तद्वर्गस्य यत् उत्पत्तिस्थानं तदपि समुच्चीयते उदाहरणार्थं ण्यकारः इचुयशानां तालु इत्यनेन सवर्गाक्षराणां तालुस्थानम् इति ज्ञातम् अनेन सूत्रेण नासिका च अर्थात् तालुः नासिका इत्युभयमपि ण्यकारस्य स्थानम् एवमेव मकारस्य ण्यम मकारस्य ओष्ठौ नासिका च चकारेण नासिका च इत्यत्र चकारेण तत्तद्वर्गस्य उत्पत्तिस्थानानि अपि समुच्चीयन्ते एदयितोः कण्ठतालु एकारः ऐकारश्च एतेषां कण्ठतालुस्थानं कण्ठः तालु इत्युभयोः साहाय्येन उच्यते एकारः ऐकारश्च एवमेव ओदौतोः कण्ठोष्ठम् ओकारस्य औकारस्य च कण्ठोष्ठं स्थानम् वकारस्य दन्तोष्ठं वकारस्य एकस्य वर्णस्य दन्ताः ओष्ठम् ओष्ठश्च इति उभयमपि स्थानं दन्तोष्ठं वकारस्य स्थानं जिह्वामूलीयस्य जिह्वामूलं जिह्वामूलीयः इति अन्वर्थसंज्ञा जिह्वायाः मूलं द रूट् आफ् द टङ्ग् दिस् इस् नियर् द थ्रोट् दट् इस् द स्थान काल्ड् द वर्ण काल्ड् जिह्वामूलीय नासिका अनुस्वारस्य अनुस्वारस्य उच्चारणे नासिकायाः एव उपयोगः क्रियते मुखस्य कस्यापि स्थानस्य उपयोगः नास्ति केवलं नासिकायाः साहाय्येन प्रयुज्यते सः वर्णः अनुस्वारस्य नासिकास्थानम् इति स्थानानि एतानि प्रत्येकं वर्णस्य स्थानम् अतेन निर्दिष्टम् किमुक्तमासीत् अस्माकं सूत्रमस्ति तुल्यास्य प्रयत्नं सवर्णम् बाल्वादिस्थानम् आभ्यन्तरप्रयत्नश्च यस्य येन तुल्यम् तत् सवर्णसमयं स्यात् तत्र ताल्वादिस्थानं नाम किम् एतानि स्थानानि इति ज्ञातम्. अहमिदानीं वदामि तत् अनुवदन्तु सर्वे. एतानि सूत्राणि अकुहविसर्जनीयानां कण्ठः इचुयशानां तालु ऋतुरसानां मूर्धा ऋतुलसानां दन्ताः उपूपध्वनीयानाम् ओष्ठौ न्यमगणनानां नासिका च एतयोः कण्ठतालु ओदौतोः कण्ठोष्ठम् बकारस्य दन्तोष्ठम् जिह्वामूलीयस्य जिह्वामूलम् नासिका अनुस्वारस्य इति स्थानानि. सो दीस् आर् द वर्णोत्पत्ति स्थानास्. सो दिस् इस् द फस्ट् कण्डीशन् आफ् सवर्ण. That is the sthana for any two swaras to be called, or for any two letters to be called savarna. The first condition to be satisfied is they should have the same sthana. So if you have two letters which are appearing in two different sutras here, they can never be savarna because they do not have the same varnotpatti sthana. Now the next parameter which was used in that sutra is the prayatna. Prayatna literally means effort, the effort which is put into pronunciation. But prayatna is a technical term. There are two kinds of prayatna. Prayatnaha dvidha, abhyantaraha bahyascha. Abhyantara prayatnaha ityapi asti, bahya prayatnaha ityapi asti. Adhyaha chaturdha, adhyaha nama prathamaha, abhyantara prayatnaha chaturdha asti, chattvaraha abhyantara prayatnaha. स्पृष्ट ईशस्पृष्ट विवृत संवृत भेदात् चत्वारः अभ्यन्तर प्रयत्नः स्पृष्टः स्पृष्ट प्रयत्नः ईशस्पृष्ट प्रयत्नः विवृत प्रयत्नः संवृत प्रयत्नः इति. तत्र स्पृष्टं प्रयतनं स्पर्शानां स्पर्शवर्णाः इति सन्ति. तेषां वर्णानां स्पृष्टः प्रयत्नः. के स्पर्शवर्णाः इति चेत् कादयो मामसानाः स्पर्शाः ककारादारभ्य मकारपर्यन्तम्. अस्माकं वर्णमालाया अस्ति मातृकापाठः कख गघङ च छ झ झञ् इत्यादि पाठः. तत्र ककारादारभ्य मकारपर्यन्तं सर्वाणि वर्गीयव्यञ्जनानि स्पृष्टप्रयत्नवन्ति. तेषां सर्वेषां स्पृष्टः प्रयत्नः ककारादारभ्य मकारपर्यन्तम्. ईषत्स्पृष्टम् अन्तःस्थानाम् अन्तस्थाः नाम यवरलाः यकार वकार रेफलकाराणाम् अन्तस्थाः इति नाम. तेषाम् ईषत्स्पृष्टः प्रयत्नः. विवृतम् ऊष्मणां स्वराणां च विवृतप्रयत्नः ऊष्मवर्णानां स्वराणां च. ऊष्मवर्णाः नाम श श स ह एतेषां चतुर्णाम् ऊष्माणः इति नाम. यरलव इति अन्तस्थाः श श स ह इति ऊष्माणः. एतेषां वर्णानां स्वराणां च विवृतः प्रयत्नः. ह्रस्वस्य अवर्णस्य प्रयोगे संवृतं संवृतः प्रक्रियादशायां तु विवृतमेव. ह्रस्वः अकारः नाम अ इति ह्रस्वः यः अकारः तस्य प्रयोगे प्रयोगे नाम यदा भाषायां प्रयुज्यते. उदाहरणार्थं राम हे राम इति उच्यते चेत् तत्र यः मकारोत्तरः अकारः तस्य संवृतः प्रयत्नः. प्रक्रियादशायां तु यथा व्याकरणे राम इति प्रातिपदिकात् रामः इति रूपं यदा निष्पाद्यते तस्यां प्रक्रियादशायां तु तस्य अकारस्य विवृत एव प्रयत्नः. यतोहि सः स्वरः सर्वेषां स्वराणां विवृतप्रयत्नः. ह्रस्वस्य अवर्णस्य प्रयोगे तु संवृतः इति कश्चन प्रयत्नः अस्ति. एतेषां प्रयत्नानां डेफिनिशन् किम् इति न दत्तमस्ति कौमुद्यां, किन्तु एवं प्रयत्नाः सन्ति ये योगिनाम् अनुभवसिद्धाः, अस्माकं तु तथा न ज्ञायन्ते, किन्तु एतेषां वर्णानाम् एते प्रयत्नाः इति परम्परया ज्ञायते. चतुर्था आभ्यन्तरप्रयत्नः अस्ति, स्पृष्ट ईषत्स्पृष्ट विद्वत संवृत इति. तत्र ककारादारभ्य मकारपर्यन्तं स्पृष्टप्रयत्नः, यकारादारभ्य वकारपर्यन्तम् ईषत्स्पृष्टः, शोषसः इत्येतेषां तथा स्वराणाम् अकारादारभ्य औकारपर्यन्तं विवृतः प्रयत्नः, ह्रस्वस्य अवर्णस्य प्रयोगे संवृतप्रयत्नः इति आभ्यन्तरप्रयत्नस्य भेदाः. बाह्यप्रयत्नस्य भेदाः अन्ते उच्यन्ते. इदानीम् अस्य विषये इतोपि अस्ति. ततः प्राक् इदानीं सवर्णसंज्ञासूत्रे तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रे ताल्वादिस्थानम् आभ्यन्तरप्रयत्नश्च यस्य येन तुल्यं तत् विधः सवर्णसंज्ञं स्यात् इति उक्तम्. ताल्वादिस्थानानि ज्ञातानि अपुहविसर्जनीयानां कण्ठः इत्यादिना. इदानीम् आभ्यन्तरप्रयत्नाः अपि ज्ञाताः स्पृष्ट ईषस्पृष्टविवृतभेदात्. इदानीं यः कोऽपि वर्णः अथवा वर्णद्वयं स्वीक्रियते चेत् सावर्ण्यम् अस्ति वा नास्ति इति परीक्षा कर्तुं शक्यते. उदाहरणार्थं ह्रस्व आकारः दीर्घ अ अकारः नाम आ अ इति वर्णः, आ इति वर्णः, अनयोः सावर्ण्यम् अस्ति वा न वा इति परीक्षा करणीया. कथं क्रियते? आदौ स्थानम्, अकारस्य किं स्थानम्, आकारस्य किं स्थानम्, अकारस्य कण्ठः स्थानम् अपुहविसर्जनीयानां कण्ठः, आकारस्यापि तदेव स्थानं. मया उक्तम् अष्टादशापि प्रभेदानां तदेव अकारस्यापि आकारस्यापि कण्ठः स्थानम्. प्रयत्नः कः? विवृतम् ऊष्मणां स्वराणां च, स्वराणां सर्वेषां स्वराणां विवृतः प्रयत्नः. तस्मात् स्थानमपि समानं कण्ठः, प्रयत्नः अपि समानः विवृतप्रयत्नः. तस्मात् अकारस्य आकारः सवर्णः, आकारस्य अकारः सवर्णः. अष्टादशभेदेषु अपि एवं परीक्ष्यते चेत् सर्वेषामपि समानं स्थानं समानः प्रयत्नः. तस्मात् अकारस्य अष्टादश अपि प्रभेदाः परस्परं सवर्णाः इति कथ्यन्ते. आल् 18 कण्ठः स्थानम्, इकारस्य तालुस्थानम् इचुयशानां तालु. स्थाने भेदः अस्ति, तस्मात् अकारस्य इकारस्य च परस्परं सावर्ण्यं नास्ति. एवमेव अकारः ककारश्च स्वीक्रियते. अ क उभयोरपि कण्ठः स्थानम् अकुहविसर्जनीयानां कण्ठः इत्यनेन. किन्तु प्रयत्नः कः? अकारस्य विवृतः प्रयत्नः, विवृतम् ऊष्मणां स्वराणां च. ककारस्य तु स्पृष्टः प्रयत्नः, सादयो मावसानाः स्पर्शाः स्पृष्टं प्रयत्नं स्पर्शाः. प्रयत्नभेदात् अकारककारयोः परस्परं सावर्ण्यं नास्ति. सो इट् इस् नाट् इनफ् इफ् ईदर् आफ् दीस् इस् सेम्, बोत् आफ् दीस् पेरामीटर्स् शुड् बी द सेम् फार् टु वर्णास् टु बि काल्ड् सवर्णास् अ फीचर्. फस्ट् थिङ्ग् इस् द स्थान, द सेकेण्ड् थिङ्ग् इस् एवं सर्वेषां स्वराणां ये प्रभेदाः सन्ति ते सर्वे परस्परं सवर्णाः. वर्गीयव्यञ्जनेषु क ख ग घ ङ ककारस्य खकारेण सह सावर्ण्यम् अस्ति, उभयोः कण्ठः स्थानं स्पृष्टः प्रयत्नः. एवं ककारस्य गकारस्य ककारस्य खकारस्य एवं वर्गीयव्यञ्जनेषु प्रत्येकं वर्गस्य पञ्चानामपि वर्णानां परस्परं सावर्ण्यम् अस्ति. योवरल इत्येतेषां तु परस्परं सावर्ण्यं नास्ति स्थानभेदात् प्रयत्नभेदात् इति. तुल्यास्य प्रयत्नं सवर्णम् इत्यनेन एतेषां सर्वेषां वर्णानां परस्परं सवर्णसंज्ञा विहिता. एतावत् ज्ञातं चेत् अत्र किञ्चित् विशेषः अस्ति. कोऽपि प्रश्नः? questions or can I move on?
No raised hands, Samir.
इदानीं स्थानं ताल्वादिस्थानं ज्ञातम् आभ्यन्तरप्रयत्नश्च ज्ञातः तत्र अन्ते प्रयत्नेषु अन्ते उक्तं ह्रस्वस्य अवर्णस्य प्रयोगे संवृतं प्रक्रियादशायां विवृतं कथं साध्यते इदम् एकस्यैव वर्णस्य कथं प्रयोगद्वयम् इति चेत् एकं सूत्रमस्ति अष्टाध्याय्याः अन्तिमं सूत्रम् अष्टमाध्याये चतुर्थपादे अष्टषष्टितमं सूत्रम् अष्टाध्याय्याः अन्तिमं सूत्रम् दिस् इस् द लास्ट् सूत्र आफ् अष्टाध्यायी सूत्रमस्ति अ इति अकारद्वयमस्ति तावदेव सूत्रे कः अर्थः विवृतम् अनूद्य संवृत्तः अनेन विधीयते एतावत्पर्यन्तं यदि शास्त्रं यदा प्रवृत्तम् इत्युक्ते सन्धिः वा समासः वा प्रक्रिया वा यदा कृतं तत् सर्वं यदा कृतं तदा सर्वदा अकारः विवृतः आसीत् ऊष्मणां स्वराणां च विवृतप्रयत्नः अन्ते अष्टाध्याय्याः अन्ते किं करोति पाणिनिः विवृतम् अनूद्य संवृतं विदधाति इत्युक्ते यः यः यत्र यत्र विवृतः अकारः अस्ति तत्र सर्वत्र तस्य संवृतत्वम् इति पाणिनिना उक्तं विवृतम् अनूद्य संवृतः अनेन विधीयते अट् द वेरि एण्ड् इन् द लास्ट् सूत्र आफ् अष्टाध्यायी that all vivrata akaras will be converted to samvrata akara at the end of the shastra when you finish vyakarana shastra and get is vivrata is sorry is samvrata before that when you are actually doing the prakriyas in vyakarana when we are in the vyakarana shastra then the akara is vivrata at the end when you finish the shastra and get into prayogas it is called samvrata but how is this I mean Ashtadhyayi is arranged in a particular order, but as I told you that day, it is not the case that you have to move in that particular order. It is not that you have to apply the first sutra first, then second, then third. No. The order does not hold good. You can apply some sutra from the sixth chapter first, and then apply a sutra from the third, go back to seventh, or anything. It does not matter in most cases. So where does it matter? How does he ensure that the akara is samvrata only in prayoga? Why cannot you use this prayoga in this sutra somewhere in the middle of the prakriya and say that akara is samvrata? Asya cha asya sutrasya ashtadhyayim sampurnam prati asiddhatvat shastra drishtya vivrutatvam astyeva asiddhatvam iti vyakarana shastrasya ati pramukheshu उपायेषु अन्यतमः पाणिनिना उपयुक्तेषु साधनेषु असिद्धत्वम् अत्यन्तं प्रधानम् इट् इस् वन् आफ़् द मोस्ट् इम्पार्टेण्ट् टेक्निक् दट् पाणिनि यूसस् इन् हिस् ग्रामर् टु कण्ट्रोल् द अप्लिकेशन् आफ् सूत्र सो नौ लेट् सी वाट् इस् असिद्धत्व एण्ड् देन् कम् बेक् टु द स्टेट्मेण्ट् असिद्धत्व इस् गिवन् बै ए सूत्र इस् काल्ड् पूर्वत्रासिद्धम् पूर्वत्रासिद्धम् इति सूत्रं पदद्वयमस्ति पूर्वत्र असिद्धम् अष्टमाध्यायस्य द्वितीयपादस्य प्रथमं सूत्रं पूर्वत्रासिद्धम् इदं च अधिकारसूत्रम् अधिकारोऽयम् इति उच्यते किं नाम अधिकारसूत्रं पठ्यते वा आदौ सूत्रप्रभेदाः पठिताः अस्माभिः संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशोऽधिकारश्च अधिकारसूत्राणि इति सन्ति कः अधिकारः नाम कः यस्मिन् सूत्रे सूत्रस्थानि पदानि अग्रेषु सूत्रेषु सर्वेषु स्व अर्थं यच्छन्ति तत् अधिकारसूत्रम् अधिकारसूत्र इस् वन् सूत्र वेर् आल् द वर्ड्स् आफ् द सूत्र दे डु नाट् हेव् एनी इण्डिपेण्डेण्ट् मीनिङ्ग् दे गो आन् एण्ड् आड् देर् मीनिङ्ग् टु आल् द सक्सीडिङ्ग् सूत्र सो दिस् इस् वन् सच् टैप् आफ् अ सूत्र पूर्वत्रासिद्धम् इति अधिकारः अष्टमाध्यायस्य द्वितीयपादे आरभ्य अष्टमाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् अयम् अधिकारः दिस् अधिकार रेञ्जस् beginning from the first sutra of the second pada of the 8th chapter till the end of the 8th chapter. That is three padas, 8-2, 8-3 and 8-4 are covered under this adhikara. Kimuchyate anena sutrena purvatra asiddham. Itasparam yadyaduchyate tatsarvam purvatra asiddham. Whatever is told henceforth will not be known earlier. So this asiddhanta is regarding the sutras only. What this sutra effectively tells is, whatever is told by the sutras which are yet to come will not be known by the sutras which exist before. That is, if there is some sutra in the 7th chapter that will not know the sutra which is in say 8-2-3 or 8-2-4. This happens with the whole of Ashtadhyayi, whatever comes before. So based on this sutra, we divide the Ashtadhyayi into two parts. It is not two equal parts. Ashtadhyayi eva dvedha vipakta. Ashtadhyayi nama prathamadhyaya darabhya ashtamadhyayasya chaturtha padapadhyantam asti. Ahatya dvatrimshat padaha santi. Satra sapada saptadhyayi. Saptadhyayi nama saptadhyayaha adhyayaha sapada. Padena sahita saptadhyayi. Ashtamadhyasya ekaha padaha atra asti. The first seven chapters plus one pada of the eighth chapter forms the first group, which is called sapada saptadhyayi. Anyaha padaha tripadi. Padatrayam asti. Trayaha eva padaha. Kete 8-2, 8-3, 8-4. Ashtamadhyayasya dvitiye dvitiye chaturtha padaha. Etesham ahatya tripadi iti nama. Sapada saptadhyayi. Tripadi iti bhagadvayam ashtadhyayah. Kimuchyate purvatta siddham ityanena tena sapada saptadhyayim prati tripadi asiddha. Sapada saptadhyayi drishtya tripadi nasti. The sapada saptadhyayi, the portion, the first portion, which is the 7 chapters plus 1 pada, thinks that the sutras in tripadi do not exist. In the sapada saptadhyayi, as long as you are within the first 7 chapters and 1 pada, all sutras know all other sutras. Each sutra knows what sutra will apply and what is the karya being done by that sutra. But their rate stops at 8174. They think, this whole portion thinks that there are only 8 adhyayas. The 8th adhyaya has only 1 pada with 74 sutras. They think that is the end of Ashtadhyayi. Ahead, there are three padas which are invisible to the sutras of Sapada Saptadhyayi. Sapada Saptadhyayi drishtya tripadyaha sutrani na vidyante. What does that imply? Practically means, if there is something which is done, a karya which is done by a sutra in the tripadi, the Sapada Saptadhyayi sutras will not know that karya has occurred. Means what happens generally when we are doing prakriya is, there are a series of sutras. We apply a series of sutras, one after the other. So if I am saying, if I do Rama Su by the Sutra Sauja Samokshash, after that I do Upadeshaya Janunasika Ita. How do we do Upadeshaya Janunasika Ita? Because that sutra, Upadeshaya Janunasika Ita, knows that there is a prakriya called Su, in which the ukara is anunasika, so it comes and takes away the ikshamya. Next you have Ramas, then you apply a sutra called Sasajushodhu, which sees that there is a sakara at the end of a pada and applies, converts that sakara to repha. Then there is one more sutra which will convert that repha to visarga. Now all this would not happen if the sutras did not know each other. But what happens is, the sutras know which other sutras are applying. They can see what is the change happening. Once a change happens, if there is a sutra A and there is a sutra B, first there is no opportunity for B to apply. The conditions for B are not satisfied, but the conditions of A are satisfied. So you apply sutra A. Now after the application of sutra A, if the conditions are such that the B can apply, B will apply and convert it into something else. That is how normally the procedure goes. But now, if A happens to be in Tripadi and B happens to be in Sapada Saptadhyayi, you apply A first and do something, convert something to something else. Now, even if the conditions for B are satisfied, B will not apply. Why will it not apply? Because it does not know that Tripadi exists. It cannot see the change which is done by any sutra of the Tripadi. This is in brief how Purvatra Siddham operates. There is lots more to Purvatra Siddham which will come later. For now, if you got the basic concept correct, we'll apply to this situation and see what happens. Before it, I think somebody has a question. No? Okay. इदानीं पूर्वत्र सिद्धम् इत्यनेन किम् उच्यते सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा सपादसप्ताध्यायीस्थानि सूत्राणि त्रिपादीस्थानि सूत्राणि न जानन्ति इति एकः भागः दट् इस् वन् पार्ट् पूर्वत्र सिद्धं बैफर्केट् अष्टाध्यायी इन् टु टु एण्ड् टेल्स् दट् वट् एवर् कम्स् फर्दर् विल् नाट् बि नोन् बै द प्रीवियस् सूत्र दट् इस् वन् पार्ट् बट् देन् पूर्वत्र सिद्धम् इति अधिकारसूत्रमपि भवति अधिकारसूत्रं नाम किम् अग्रे प्रत्येकस्मिन् सूत्रे पूर्वत्र असिद्धं पूर्वत्र असिद्धं पूर्वत्र असिद्धम् इति पदं भवति इन् ईच् आफ् द सक्सीडिङ्ग् सूत्रास् इट् विल् से पूर्वत्र असिद्धं मीन्स् वाट् फार् ईच् आफ् द सक्सीडिङ्ग् सूत्रास् इफ् यु अप्लै पूर्वत्र असिद्धम् इट् मीन्स् दट् दिस् सूत्र विल् नाट् बि नोन् बै द प्रीवियस् सूत्रास् इफ् यु आर् अप्लैङ्ग् पूर्वत्र असिद्धम् इन् 8-2-2 it will tell you that 8-2-2 is not known by sutras known by sapara saptadhyayi but if you apply 8-2-3 purvatra asiddham means this sutra that is beginning from 8-2-3 will not be known by sapara saptadhyayi and also 8-2-2 anything which comes before that will not know that this sutra exists similarly if you go to say 8-4-1 it will be asiddha for not only sapada saptadhyayi but also to two padas of tripadi for everything it is purvatra asiddham this way he goes on eliminating each sutra in the tripadi thinks that itself is the last sutra of the ashtadhyayi so any sutra say 8-2-3 will not apply after 8-2-15 if you are applying sutras in the tripadi you have to apply them in the proper succession you cannot apply a later sutra and then do a former sutra because the former sutras will not know the latter sutra this is one of the amazing techniques used by panini we very thank it's just genius where he controls each sutra if you remove one sutra from its place and put it somewhere else the structure of ashtadhyayi will collapse because somewhere the prakriya will go wrong taken so much thinking to regulate it so tightly that it's like the numbers matter so much here the numbers do matter in sapada saptadhyayi for a different reason but for the tripadi it is very 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 important unless you know the proper numbering of the sutras you cannot get the proper result by applying the sutra of tripadi अधिकारोऽयं केन विधीयते सिद्धम् तानि सूत्राणि सन्तषष्टितमसूत्रपर्यन्तं तेषां सूत्राणाम् अस्य सूत्रस्य
समयजि वि जस्ट् लास्ट् यू फार् 1 मिनिट्
Oh Lord. Can you hear me now?
Yes, it's better now, but we lost you for about 1 minute.
Ouch. Okay. Where was I?
I think...
Okay. I was explaining Purvatra Siddham.
You finished the part where later sutras cannot, or previous sutras cannot see the later ones.
सो पूर्वत्रासिद्धम् इत्यनेन कार्यद्वयं साध्यते एकं तु सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा. सपादसप्ताध्याय्यां यानि सूत्राणि सन्ति तानि त्रिपादीस्थानि सर्वाणि सूत्राणि न जानन्ति. त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धं स्यात्. पूर्वसूत्रं परसूत्रं न जानाति. द वन् सूत्र विल् नाट् नो दट् द नेक्स्ट् सूत्र एक्सिस्ट्. इफ् वि अप्लै दिस् सिचुवेशन् टु अ अ, वाट् इस् अ अ टेलिङ्ग्? विवृतम् अनूद्य संवृतः अनेन विधीयते इति उच्यते. विवृत सर्वेषां विवृत अकाराणां स्थाने संवृतः अकारः विधीयते. इदं च पूर्वत्र असिद्धं नाम अष्टामाध्यायस्य चतुर्थपादस्य सप्तषष्टितमसूत्रपर्यन्तम् इदं सूत्रं न ज्ञायते. न ज्ञायते चेत् शास्त्रदृष्ट्या सर्वेषां सूत्राणां दृष्ट्या अकारः विवृतः. यदा तु सर्वेषां सूत्राणां प्रयोगः कृतः ततः परम् अन्ते इदं सूत्रमुच्यते. तेन प्रक्रियायाः समाप्त्यनन्तरं विवृताकारस्य स्थाने संवृताकारः विधीयते. तस्मात् शास्त्रदृष्ट्या प्रक्रियासमये अकारः विवृतः, प्रक्रियानन्तरं प्रयोगसमये तु संवृतः. कथं ज्ञातं? पूर्वत्र असिद्धम् इत्युक्तत्वात् अष्टाध्यायीं सम्पूर्णां प्रति असिद्धत्वात्. द होल् आफ् अष्टाध्यायी डस् नाट् नो दट् अ अ एक्सिस्ट्. इट् इस् द लास्ट् सूत्र. सो एस् फार् एस् द अदर् सूत्रास् आर् कन्सर्न्ड्, अ अ डस् नाट् एक्सिस्ट्. देर् इस् नो संवृत अकार. इट् आल् सूत्रास् ट्रीट् अकार एस् विवृत. एट् द एण्ड् वेन् यु हेव् अप्लैड् आल् पासिबल् सूत्रास् एण्ड् यु आर् रेडी वित् द फैनल् फार्म्, देन् यु अप्लै दिस् सूत्र एण्ड् टेल् दट् इफ् देर् इस् एनी ह्रस्व अकार इट् विल् बि कन्वर्टेड् टु संवृत. ओके, देर् फोर् ह्रस्वस्य अवर्णस्य प्रयोगे संवृतं, प्रक्रियादशायां तु विवृतमेव. एतच्च सूत्रकारेण ज्ञापितं. सूत्रकारः एव वदति. कथं वदति? अन्ते अष्टाध्याय्याः अन्ते अ अ विवृतमनूद्य संवृतः अनेन विधीयते. अस्य च अष्टाध्यायीं सम्पूर्णां प्रति असिद्धत्वात् शास्त्रदृष्ट्या विवृतत्वम् अस्त्येव. तथा च सूत्रं पूर्वत्रासिद्धम् अधिकारोऽयम् तेन सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा. त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रम् असिद्धं स्यात् इति पूर्वत्रासिद्धम्. मीट् पूर्वत्रासिद्धं लाट्स् आफ् टैम्स् इन् प्रक्रिया. For now, it's enough if you know, got the basic concept of Asiddhatva and how A-A is Asiddha to the whole of Ashtadhyayi. Now, any questions? Can you hear me now? Hope you heard me.
Yes, it's much better now.
Okay. The raised hand, I think. Lalita.
सौम्याजी. हलो
हलो.
इज देर एनी स्पेसिफिक रीजन वाई ही राइट्स दैट एट द एंड इज संवृत आउटसाइड द शास्त्र?
बिकॉज इट इज संवृत ओनली वेन यू आर यूजिंग अकार इन सम प्रयोग. एज लॉन्ग एज यू आर doing the prakriya, it is vivrata, because it has to be savarna with all other akaras. If the akara happens to be samvrata during prayoga, you won't have savarna because of prayatna bheda, and then you cannot do a savarna dika sandhi or anything. So only at the end he changes the prayer.
Okay, thank you so much.
Any other questions? Mohana,
can you tell me what does this mean? Tripadyam api purvam prati param shastram asiddham syat.
Purvatra siddham has two parts. It does two jobs basically. One thing is, it bifurcates the whole of Ashtadhyayi into two parts. One is Sapada Saptadhyayi and the other is Tripadi.
Yeah.
And it tells that Sapada Saptadhyayi does not know Tripadi as a chunk. there are two chunks. The first chunk, which is Apara Sutradhyayi, does not know that the second chunk exists. But okay. Then it is also an Adhikara Sutra. So it is applied in each of the following sutras. So with when it goes to each sutra, it keeps telling that this is not known before. This is not known before. Means for each sutra in the Tripadi, will not know the following sutras. The second sutra will not know the third. The third will not know the fourth. Fourth will not know the fifth, and so on. That is what it means. Tripadyam api. Even in the Tripadi, Purvam prati param shastram asiddham. For the previous sutra, the latter sutra will be asiddha. That is, a previous sutra cannot apply after the application of a latter sutra. That is what it translates.
Okay, now I understand the Nivada.
Any questions? Any other questions? No?
No more, Samyage.
So I think we can close for today. Next class will be on Monday. Somavasare Ashtavadane Kakshya. Madhya Yadi Prashnaha Bhaveyuhu, email Dwara Prichhantu. There were few people who opted for batch 2. I think I'll contact them and see if they want any, as in, if they've heard the recordings and if they have any doubts, then we can have a session. But otherwise, I think we'll find it. Is it okay, Ravi, if people want a class for clearing their doubts, we might have another session over the weekend.
Sure. Let me know the timings.
Yeah.
And we can figure out something.
मङ्गलश्लोकं पठामः. एनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते.
Kalivardhani has a question. Can you, he typed it. Can you please take a look?
Okay. तदेव समस्यानिवारणसेशन् यदि आवश्यकं पृच्छामि. ये तु अस्यां कक्षायां सन्ति तेषां कोऽपि सन्देहः न स्यात् इति मन्ये. यदि सन्ति इदानीमेव प्रष्टुमर्हन्ति. अन्ये ये रेकार्डिङ्ग् श्रुत्वा प्रश्नं प्रष्टुमिच्छन्ति तैः सह सम्पर्कं कृत्वा वदामि. यदि भवति तर्हि सर्वेषां कृते ईमेल् प्रेषयामि. नास्ति चेत् पश्यामि. Okay. So I think we can close for today.
Okay, Samiri. I'll stop the recording now.